इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी ग्रेटर नोएडायां इंडिया एक्सपो मार्ट इत्यत्र श्वः 24,000-2,000 तमवर्षस्य सेमिकॉन इंडिया इत्यस्य उद्घाटनं करिष्यति। सः अस्मिन् अवसरे एकां जनसभाम् अपि संबोधयिष्यति। प्रधानमन्त्री नरेन्द्र मोदी अधिकाधिक जनैः आग्रहं कृतवान् यत् पद्म पुरस्काराय प्रेरणास्पदानां जनानां नामांकनं कुर्वन्तु। नामांकनस्य अन्तिमा तिथिः अस्य मासस्य 15 दिनांकः अस्ति। सामाजिक संजालीय एकस्मिन् सन्देशे प्रधानमन्त्री अनेकानि नामांकनानि प्राप्य प्रसन्नः अस्ति इति उक्तवान्। सः प्रकाशितवान् यत् विगत दशके सर्वकारेण जनपद्म पुरस्कारेण असंख्य निम्नस्तरीय नायकाः पुरस्कृताः। सः अवदत् यत् पुरस्कार प्राप्त जनानां जीवनयात्रया बहुशः जनाः प्रेरिताः। नामांकनानि अत्र award.gov.in इत्यत्र प्रेषयन्तु। उत्तराखण्डस्य सोनप्रयाग मुन कुटिया क्षेत्रस्य भूस्खलन क्षेत्रे शिलापतनेन ह्यः सायं एकस्य जनस्य मृत्युः अभवत्, अन्ये द्वौ व्रणितौ जातौ। व्रणितौ चिकित्सालये प्रेषितौ स्तः। दुर्घटनायाः दुखद वार्तायाः अनन्तरं मुख्यमंत्री पुष्कर सिंह धामी शोक संवेदनां प्रकटितवान्। सः अवदत् यत् सूचना प्राप्त्यानन्तरं एव साहाय्योद्धार दलानि तत्र प्रेषितानि। अखिल भारतीय चिकित्सा विज्ञान संस्थानम् अद्य नवदिल्ल्याम् एकस्य समर्पितस्य तमाल निवृत्ति चिकित्सालयस्य इत्यस्य आरम्भं करिष्यति। भारते तमाल उपयोगेन उत्पन्नस्य महत्वपूर्णं जनस्वास्थ्य समाह्वानं निवारणाय एषः उपक्रमः उद्दिश्यते। टीसीसी चिकित्सालयं राष्ट्रिय औषध निर्भरता उपचार केन्द्रस्य संस्थायाः गभीर निद्रा चिकित्सा विभागस्य च प्रयासः अस्ति। भारतस्य ऋतु विभागेन अद्य पूर्व मध्य प्रदेशे छत्तीसगढ़े च प्रचंड वृष्टेः संभावना प्रकटिता। नागालैंड मणिपुर मिजोरम त्रिपुरा राज्येषु च आगामिनो दिनद्वयोः अति वृष्टिः भविष्यति। ऋतुविभागेन अद्य ओडिशायां तेलंगानायां दक्षिण आंतरिक कर्नाटके केरले माहे इत्यत्र च प्रचंड वृष्टेः अनुमानं प्रकटितम्। सर्वोच्चन्यायालयेन ह्यः इलाहाबाद उच्चन्यायालयस्य आदेशः स्थगितः, यस्मिन् उत्तरप्रदेश सर्वकारेण 29,000-2,000 तमे वर्षे सहायक शिक्षक परीक्षायाः माध्यमेन चितानाम् 71,000 यावत् सहायक शिक्षकाणां संशोधित सूचीं निर्मातुम् उक्तमस्ति। शीर्षन्यायालयेन सहायक शिक्षकाणां चयन सूच्याधारितम् उच्चन्यायालयस्य निर्णयोऽपि स्थगितः, यत् राज्याधिकारिभिः 20,000-2,000 तम वर्षस्य अपि च 20,000-2,000 तम वर्षस्य जून मासे जनवरी मासे च उत्तीर्णाः शिक्षकाः येषु 800-6,000 अभ्यर्थिनः सम्मिलिताः आसन्। मुख्यन्यायाधीशस्य डीवाई चन्द्रचूडस्य न्यायाधीशस्य जेबी पारदीवालायाः मनोजमिश्रायाः च पीठेन पंजीकृत याचिकायां राज्यसर्वकाराय उत्तरप्रदेश बेसिक शिक्षा मण्डलस्य सचिवं च समेत्य अन्येभ्यः च कृते सूचना प्रसारिता अस्ति। चीनदेशस्य एशिया चषक प्रतिस्पर्धायाम् अस्मिन् क्रीडायां गतरात्रौ भारतेन द्वितीय क्रीडायां जापानदलं 5-1 इति अंकान्तरालेन पराजितम्।